अस्तु, तर्हि अस्माकं न्यायवर्गे अधुना सप्तपदार्थानां वर्णनं जातम्। उद्देशग्रन्थे वयं स्मः, यत्र सप्तपदार्थानामपि नाम्ना निर्देशः अस्माभिः दृष्टः। इतः अग्रे गत्वा अभावस्य विषये इतोपि गभीरचर्चा भवति। तर्हि एकः प्रश्नः आगतः आसीत् गतवर्गे, आकाशत्वम् इति धर्मः कस्मिन् पदार्थे वर्तते इति। अस्माकं सोमवासरस्य वर्गे एकः महोदयः अस्ति, पूर्वन्यायशास्त्रम् अधीतवान् सः, तस्य किञ्चित् विचारान् अत्र उपस्थापयामि। तर्हि अत्र उच्यते यत् आकाशत्वम् इति यद्यपि धर्मः न तु जातिः इति वदामः, यतोहि आकाशः एकः एव, समानानां धर्मः सामान्यम् इति न भवति आकाशस्य विषये अथवा कालत्वस्य विषये, धर्मः एव, परन्तु सः धर्मः गुणः इति स्वीकृतः चेत् तर्हि चतुर्विंशतिगुणेषु कुत्र भवति इति प्रश्नः आगच्छति। तदा धर्मः अधर्मः इति अन्यतमौ गुणौ स्तः चतुर्विंशतिगुणेषु, तेषु आगच्छति वा इति प्रश्ने कृते तथा न भवति इति उत्तरं प्राप्तं, यतोहि धर्मः अधर्मः इति पारिभाषिकशब्दाः इति उक्तमासीत्। अपि च एतादृशवस्तुधर्मः गुणः न इति एकः अभिप्रायः आगतः तस्मिन् वर्गे। तर्हि अधुना आकाशत्वम् इति यद्वयं वदामः, सः धर्मः तु तस्य स्वभावः इत्येव स्वीकर्तुं शक्यते। द्रव्यत्वम् इत्यस्य धर्मः अस्ति, द्रव्यत्वं द्रव्यस्य धर्मः यथा तद्वदेव, परन्तु कुत्रचित् स्थापयितुं न शक्यते इति अभिप्रायः। इदानीं द्रव्यम् इति स्वीकुर्मश्चेत् द्रव्यं सर्वेषाम् अधिकरणम् अस्ति खलु, तर्हि सर्वस्य अधिकरणत्वम् इति धर्मः आगच्छेत् द्रव्ये, पुनः तद् कुत्र स्थापयितुं शक्नुमः इति न वक्तुं शक्नुमः। केवलं द्रव्यस्य अभिज्ञानार्थं, द्रव्यस्य स्वरूपः कः इत्यस्य ज्ञानार्थं तादृश धर्मस्य उपयोगः क्रियते इत्येव वक्तुं शक्नुमः इति एकः विचारः आगतः। प्रायः अग्रे गत्वा अन्यानपि पृच्छेम। नूतनतया केन केन आगतं, नामानि?
जगन्नाथः।
जगन्नाथमहोदय,
भगिनी क्षम्यताम्, अत्र परन्तु द्रव्यत्वं तु तत्र सामान्ये आगच्छति खलु, तद्वयं पूर्वं दृष्टवन्तः, इत्युक्ते सत्ता द्रव्यत्वम् इति सर्वम्,
इति सर्वं भगिनि, किन्तु अत्र लक्षणत्वेन यत्किमपि वदामः, यत् आकाशः आकाशत्वं सामान्यं तु नास्ति, किन्तु आकाशस्य लक्षणम् आकाशत्वम् इति लक्षणत्वेन यस्य कस्यापि प्रयोगः भवति तत्तु केवलं तस्य पदार्थस्य अभिज्ञानार्थं, तस्य स्वरूपः कः स्वभावः कः इत्यस्य अभिज्ञानार्थम् इत्येव वक्तुं शक्नुमः। तर्हि धर्मः अन्यतमः पदार्थः इति वक्तुं न शक्यते इति एकः विचारः। अग्रे गत्वा इतोपि चर्चयिष्यामः, द्रोणमहोदय वा अथवा स्वरूपमहोदय आगच्छति तदा।
धन्यवादः भगिनि।
वयं कस्मिन् पुटे स्मः?
षोडशे पुटे स्मः, षोडशपुटात् आरभ्य अद्य भवति। अस्तु, अभाववर्णनं तु कृतमस्ति, अस्माभिः गतवर्गे कृतमासीत् यत् न्यायशास्त्रे किमपि नास्ति इति विचारः, तस्य अभावः अस्ति इत्यनेन उच्यते इति वयं जानीमः। इदानीम् अभावस्य विषये इतोपि गभीरतया चर्चा भवतु इति कृत्वा, तर्हि सप्तदशे पुटे पश्यन्तु, तत्र विरोधनिरूपणम् इति अस्ति, तत्र रत्ना भगिनी पठति वा प्रथमपरिच्छेदम्?
आं भगिनि, विरोधनिरूपणम्। अयं घटाभावः घटस्य अभावः, अयं च घटे अस्ति न ज्ञायते, क्षम्यतां, घटे सति न ज्ञायते, घटे असति ज्ञायते, लोके हि एवंविधा स्थितिः विरोधः इति व्यवह्रियते, यथा नकुल अस्ति चेत् सर्पः न भवति, सर्पः अस्ति चेत् एवं विद्मः, अत्र क्षम्यताम् अत्रतः न अत्र क्षम्यताम् अत्र
सङ्कणदोषः
अस्तु अस्तु नकुलः नास्ति इति. इत्युक्ते घटाभाव अभावः इत्युक्ते किम् इति अत्र वदन्ति. यदि घटः अस्ति चेत् घटस्य अभावः कः इति न जानीमः, किन्तु घटः नास्ति चेत् घट अभावः अस्ति इति वयं जानीमः. घटस्य विरोधः घटाभावः इति अत्र व्यवहारम् इति दत्तमस्ति. यथा उदाहरणं दत्तमस्ति, यदि नकुलः अस्ति चेत् सर्पः न भवति, इत्युक्ते सर्पाभावः भवति नकुलः अस्ति चेत्. सर्पः अस्ति इति जानीमः चेत् वयं सर्पः अस्ति इति पश्यामः चेत् वयं जानीमः नकुलः नास्ति इति. तयोः विरोधः अस्ति तयोः मध्ये.
हा, समीचीनं. तर्हि अभावस्थले अपि विरोधः अस्ति, परस्परं विरोधः कयोः मध्ये भगिनि?
वस्तुनः इत्युक्ते घटस्य घटाभावस्य विरोधः भवति.
हा, तर्हि घटः घटाभावः परस्परविरोधिनौ इति वदामः. अधुना विरोधस्य द्वैविध्यम् अस्ति. वध्यघातकभावरूपः इति एकः विरोधः, सहानावत्थानरूपः इति अपरः विरोधः. तर्हि रत्ना भगिनी, पठनं मास्तु, चित्रस्य विवरणं दत्त्वा उभयोः मध्ये भेदः कः इति प्रदर्शयतु.
अस्तु भगिनि, प्रथम अस्तु चित्रद्वयं दृष्ट्वा वा.
प्रथमः अस्ति वध्यघातकरूपः इति विरोधः, वध्यघातकभावरूपः इति.
अस्तु, प्रथमम् अस्ति, प्रथमक्षणे सर्पः अस्ति, द्वितीयक्षणे अपि सर्पः अस्ति, तृतीयक्षणे सर्पः अस्ति, नकुलः अपि अस्ति, चतुर्थक्षणे सर्पः नष्टः, नकुलः अस्ति. अत्र किं भवति इत्युक्ते द्वयोः विरोधिनः अस्तित्वम् अस्ति तृतीयक्षणे. तस्मात् पूर्वम् एकस्य अस्तित्वम् अस्ति, चतुर्थक्षणे अन्यस्य अस्तित्वम् अस्ति. इत्युक्ते प्रथमं सर्पः अस्ति, अनन्तरं सर्पनकुलयोः द्वयोः अस्तित्वम् अस्ति, अनन्तरं केवल नकुलस्य नकुलः अस्ति, सर्पः नष्टः इति. द्वितीयमस्ति सहानवस्थानकरूपविरोधः. इत्युक्ते अत्र प्रथमक्षणे घटाभावः अस्ति, द्वितीयक्षणे अपि घटाभावः अस्ति, तृतीयक्षणे घटः आगच्छति, घटः भवति, चतुर्थक्षणे घटः भवति. इत्युक्ते वध्याघातकभावरूपे द्वयोः विरोधिनोः एकक्षणे अस्तित्वं भवति. इत्युक्ते तृतीयक्षणे सर्पः अपि अस्ति, नकुलः अपि अस्ति, किन्तु सहानावस्थानरूप विरोधः अस्ति चेत् घटाभावः आसीत्, तदनन्तरं तृतीयक्षणे घटः आगतः. इत्युक्ते यदि घटः भवति तस्मिन् क्षणे घटाभावः कदापि भवितुं न अर्हति. इत्युक्ते विरोधिनः अस्तित्वम् एकत्र एकस्मिन् क्षणे भवितुं न अर्हति अत्र.
हा, समीचीनमस्ति. इति एव प्रमुखः भेदः. अभावस्थले सः अनवस्थानरूपः विरोधः भवति. सः अनवस्थान इति पृथक् कृत्वा वदामश्चेत् इत्युक्ते सः अवस्थानं न कदापि भवति विरोधिनोः, तादृशविरोधः अस्ति अभावस्थले इति मनसि भवेत्. वध्यघातकरूपविरोधः तु केवलम् एवमेव उदाहरणार्थं दत्तम्. अभावस्थले सहानावस्थानरूपः विरोधः. अस्तु भगिनि, अग्रिमपुटे पश्यतु, तत्र विरोधः कुत्र कुत्र अस्ति इति चित्रे उल्लिखितं, कुत्र अस्ति?
अस्तु, घटे विरोधः अस्ति, घटाभावे अपि विरोधः अस्ति. घटे या विरोधः अस्ति सः या अस्ति सा प्रतियोगिता इति वदामः. अभावे या यः विरोधः अस्ति तम् अनियोगिता इति वदामः. अग्रे पश्यामि वा भगिनि, पठामि वा?
हा हा, अस्तु भगिनि, पर्याप्तं. तर्हि घटे विद्यमानविरोधस्य नाम अस्ति प्रतियोगिता, अभावे विद्यमानविरोधस्य नाम अस्ति अनुयोगिता. अस्तु, इतः अग्रे प्रतियोगिता अनुयोगितयोः अथवा अभावस्य निरूपणं कथं भवति इति पश्येम. तर्हि नीता भगिनी पठति वा इयं प्रतियोगिता अनुयोगिता च इत्यस्मात् आरभ्य.
आं भगिनि, इयं प्रतियोगिता अनुयोगिता च साकाङ्क्षं भवति. विरोधः प्रतियोगिता इत्युक्तौ कस्य इति नियमेन खलु प्रश्नः भवति. एवम् अनुयोगितायाः अपि ससम्बन्धिकत्वम्, अतः अधिकरणतयोः यथा निरूप्यनिरूपकभावः उच्यते तथा अत्रापि वक्तव्यम्. पुनः पठित्वा अहं वदामि भगिनि, इयं प्रतियोगिता अनुयोगिता च साकाङ्क्षं भवति. अत्र
साकाङ्क्षा भवति,
साकाङ्क्षा भवति. आं क्षम्यताम्. प्रतियोगिता इत्युक्ते किम्, अनुयोगिता इत्युक्ते किम् इति अत्र
नाम साकाङ्क्षा इत्युक्ते यस्य श्रवणेन, यस्य पदस्य श्रवणेन इतोपि किञ्चित् ज्ञातुं यतामहे. इत्युक्ते प्रतियोगिता इत्यस्य वदनेन इतोपि कस्य प्रतियोगिता इति प्रश्नः उदेति खलु, कीदृश अभावस्य प्रतियोगिता. तदा अभावे विद्यमानविरोधः अनुयोगिता साहाय्यं करोति ज्ञानस्य परिपूर्णार्थम् अथवा जिज्ञासायाः परिपूर्णार्थं. तदर्थमेव प्रतियोगिता अनुयोगिता साकाङ्क्षा इत्युक्ते इतोपि आकाङ्क्षा भवति एकस्य श्रवणेन अपरस्य विषये इति कृत्वा साकाङ्क्षा अस्ति. अपि च इदानीं यथा आधेयता अधिकरणतयोः मध्ये निरूप्यनिरूपकभावः, साकाङ्क्षपदार्थयोः मध्ये एव निरूप्यनिरूपकभावः अस्ति इति जानीमः खलु. आधेयता इत्यस्य श्रवणेन अधिकरणं किम् इति मनसि आगच्छति प्रश्नः. तद्वदेव प्रतियोगिता अनुयोगिता अनयोः मध्ये अपि निरूप्यनिरूपकभावः भवितुमर्हति. अग्रिमचित्रं किञ्चित् प्रतिपादयतु भगिनि.
घटनिष्ठप्रतियोगिता निरूपित अनुयोगितावान् अभावः.
हा समीचीनम्. अभावः कीदृशः इति प्रश्ने कृते अस्तु, प्रतियोगिता अनुयोगितयोः मध्ये निरूप्यनुरूपकभावः अथवा उभौ अपि साकाङ्क्षौ पदार्थौ इति जानीमः. तर्हि तयोः मध्ये विद्यमानस्य निरूप्यनिरूपकभावस्य साहाय्येन अभावस्य वर्णनं कर्तुं शक्यते यथा भगिनी अधुना कृतवती. इदानीं विपरीतदिशि भगिनी.
अभावनिष्ठ अनुयोगिता निरूपित प्रतियोगितावान् प्रतियोगिताश्रयः घटः.
हा घटः इति ज्ञातम्. अधुना अहं प्रतियोगितायाः वर्णनम् इच्छामि चेत् नाम अन्ते अभावः अथवा घटः इति आगतं खलु.
अस्तु,
हा तस्य स्थाने अन्ते प्रतियोगिता आगच्छेत् तथा वाक्यं रचयति वा. हा समीचीनमेव भगिनि. अभावनिष्ठ
अनुयोगिता निरूपित
उपरि गमनार्थं निष्ठ, तर्हि किं वक्तुं शक्नोति तत्र.
अभावनिष्ठ अनुयोगिता निरूपित
घटनिष्ठ प्रतियोगिता. हा तावदेव, अन्यत् किमपि नास्ति. वस्तुतः विद्याधरी ग्रन्थे अग्रे गत्वा प्रतियोगितायाः वर्णनस्य एव महत्त्वम् अस्ति खलु, कस्मिन् कीदृशी प्रतियोगिता अस्ति इत्यस्य एव महत्त्वमस्ति. तदर्थमेव पृष्टवती. एवमेव भवति, अभावनिष्ठ अनुयोगिता निरूपित घटनिष्ठ प्रतियोगिता. घटनिष्ठ प्रतियोगिता इति एकवारं वदति चेत् तदा घटत्वम् इति घटे अस्ति, प्रतियोगिता अपि घटे अस्ति, तर्हि घटत्वं प्रतियोगितायाः अवच्छेदकः भवति इति अग्रे आगच्छति इति पश्येम. अस्तु इति विरोधस्य विषयः अस्ति. घटे विद्यमानविरोधस्य नामकरणमस्ति प्रतियोगिता इति, अभावे विद्यमानस्य विरोधस्य नामकरणम् अनुयोगिता इति. एतावत् पर्यन्तम् आसीत्. इतः अग्रे किञ्चित् सारांशत्वेन वदामि. सुलभमेव अस्ति अन्यत् सर्वं. सामान्याभाववर्णनम्, अत्र अभावः त्रिविधः, सामान्याभावः, विशेषाभावः, विशेषविशेषाभावः इति. अत्र सामान्याभावः इत्युक्ते सामान्यम् इति अत्र जातिः इति विषयः नास्ति. अस्तु, तत्र भ्रमः मास्तु. सामान्याभावः इत्युक्ते सामान्यस्य अभावः इति नास्ति. अत्र सामान्यम् इत्युक्ते जनरल् इति गृहीतव्यं. नाम अत्र या प्रतियोगिता एकजातियुक्तेषु तदा सजातीयेषु यावत्सु भवति तादृश अभावः. उदाहरणत्वेन अत्र दत्तमस्ति एकः मत्स्यः जले अस्ति. अस्तु, जलात् बहिः मत्स्यम् उन्नयामश्चेत् तदा मत्स्यः जलाभावम् अनुभवति खलु. तस्य जलाभावस्य निवारणार्थं यत्किमपि जलं भवतु, नदीजलं, तडागजलं, कूपजलं, सर्वस्मिन् जले अभावं प्रति विरोधः वर्तते. यत्किमपि जलम् आनयतु, जलाभावः निवारितः भवति मत्स्यस्य दृष्ट्या इति. सामान्यजलाभावः इत्युक्ते सामान्यजलं, यत्किमपि जलं भवतु तद् आनयति चेत् तादृश अभावः, सामान्यजलाभावः निवारितः भवति. अधुना विशेषाभावः इत्यस्य उदाहरणार्थं चातकपक्षिणः दृष्ट्या अभावः कीदृशः इति उदाह्रियते अत्र. चातकपक्षिणः पिपासायाः परिपूरणार्थम् अत्र वृष्टिजलमेव आवश्यकमस्ति. अस्तु, चातकपक्षिणः दृष्ट्या यदा वृष्टिजलं भवति तदा एव जलाभावः निवारितः भवति. तर्हि अत्र किञ्चन वैशिष्ट्यमस्ति यद् केवलं जलाभावः न अपि तु वृष्टिजलाभावः. अस्य अभावस्य निवारणार्थं वृष्टिजलमेव अपेक्षितमस्ति, न तु केवलं जलं. पूर्वस्मिन् उदाहरणे मत्स्यस्य जलाभावस्य निवारणार्थं यत्किमपि जलं भवतु, तडागजलं, कूपजलं, नदीजलम् अथवा वृष्टिजलं, तादृश अभावः अस्ति सामान्य अभावः. अत्र वृष्टिजलाभावः इति कश्चन विशेष अभावः अस्ति. तर्हि वृष्टिजलम् एव आवश्यकमस्ति. अग्रे विंशतितमे पृष्ठे पश्यन्तु, विशेषविशेषाभावः इति अस्ति. तत्र विशेषाभावे इतोपि किञ्चित् वैशिष्ट्यम् आनीतम् इत्युक्ते स्वाति शुक्तिका अस्ति खलु सागरे. शुक्तिका इत्युक्ते पर्ल् ऑयस्टर्. ऑयस्टर् स्वातिनक्षत्रीय जलमेव इच्छति. तर्हि तस्याः दृष्ट्या यावत्पर्यन्तं स्वातिनक्षत्रीयवृष्टिजलं न भवति तावत्पर्यन्तं जलाभावः अवार्यते इति. तर्हि अत्र वृष्टिजलाभावः इति एव विशेषः आसीत्. तस्मिन् इतोपि वैशिष्ट्यं कृत्वा स्वातिनक्षत्रीयवृष्टिजलाभावः आगतः. तस्य निवारणार्थं स्वातिनक्षत्रीयवृष्टिजलमेव आवश्यकम् इति अस्ति. अभावः त्रिविधः इति. तर्हि वाक्यं रचयितुं यतामहे अधुना. सभ्यमहोदय, तत्र विंशतितमे पुटे पश्यति वा चित्रमस्ति?
आम् आं भगिनि.
हा, तर्हि वृष्टिजलाभावः कीदृशः?
वृष्टिजलाभावः, वृष्टिजलं निष्ठप्रतियोगिता निरूपित अनियोगिताश्रयः अभावः.
हा, वृष्टिजलनिष्ठप्रतियोगिता एव आवश्यकी खलु अभावस्य निवारणार्थम्. इदानीं सामान्यजलाभावः भावस्य प्रतियोगिता अथवा अभावः, तस्य वर्णनं.
हा, सामान्य जलाभावः तत्र नदीजलं निष्ठप्रतियोगिता निरूपित अनियोगिताश्रयः अभावः, अथवा तडागजलनिष्ठप्रतियोगिता भविष्यति, अथवा कूपजलप्रतियोगिता, कूपजलनिष्ठप्रतियोगिता एवमेव भविष्यति.
इत्युक्ते सर्वं जलं तस्य अभावस्य प्रतियोगी भवति खलु?
आमां.
तर्हि कथं वक्तुं शक्नुमः?
तर्हि सर्वजलनिष्ठ अथवा जलनिष्ठप्रतियोगिता इति वक्तुं शक्नुमः.
हा, जलनिष्ठप्रतियोगितानिरूपित अनियोगिताश्रयः अभावः अस्ति इति. एकवारं यदि नदीजलं तडागजलम् इति वदामश्चेत् तत्र पुनः वैशिष्ट्यम् आनीतं, तद् नापेक्षते. सामान्यजलाभावस्य प्रतियोगिता सर्वस्मिन् अपि जले वर्तते इति कृत्वा जलनिष्ठप्रतियोगितानिरूपित अनियोगिताश्रयः अभावः अस्ति. अस्तु, इदानीं विशेषविशेषाभावस्य वर्णनं करोति वा?
तत्र विशेष विशेषभावस्य वर्णनम् एवं भवति. स्वातिनक्षत्रवृष्टिजलं निष्ठप्रतियोगिता निरूपित अनियोगिताश्रय अभावः इति भवति.
हा, समीचीनमस्ति. इति अभावत्रयं सिद्धम् अत्र. त्रयाणाम् अभावानामपि प्रतियोगिताः भिन्नाः. अस्तु, इदानीं वृष्टिजले सामान्य अभावस्य प्रतियोगिता अस्ति वा?
नास्ति.
चिन्तयतु,
वृष्टिजले निश्चयेन अस्ति. अस्ति अस्ति भगिनि, अस्ति
खलु. वृष्टिजले सामान्याभावस्य प्रतियोगिता अस्ति एव. स्वातिनक्षत्रीयवृष्टिजले
सामान्य अभावः अस्ति. अस्ति अस्ति, सामान्य अभावः तु जले अस्ति, सर्वमपि जले अस्ति.
सर्वमपि जले अस्ति, किन्तु सामान्यजले इत्युक्ते केवलं जले, वृष्टिजलाभावस्य प्रतियोगिता अस्ति वा?
सामान्यजले सामान्यजले वृष्टि नास्ति. नास्ति
नास्ति नास्ति. पुनः सामान्यजले नाम जलसामान्ये स्वातिनक्षत्रीयवृष्टिजलाभावस्य प्रतियोगिता अस्ति वा?
नास्ति. नास्ति
नास्ति खलु. तर्हि अनेन किं सिद्धम्?
अभावत्रयम् अत्र भिन्नम् अस्ति.
अभावत्रयं भिन्नम्, अपि च प्रतियोगिताविषये किं वक्तुं शक्नुमः?
तत्र त्रयापि प्रतियोगितायाः तत्रापि अपि भिन्नता इति अस्ति. सर्वत्र जलम् अस्ति, परन्तु प्रतियोगिता इति भिन्नम् अस्ति.
हा हा, तिस्रः प्रतियोगिताः अपि भिन्नाः इति आगच्छति. अस्तु, अस्तु, इतोपि एकः अंशः वक्तव्यः अस्ति यत् यस्मिन् प्रतियोगिता अस्ति सः प्रतियोगी, यस्मिन् अनुयोगिता अस्ति सः अनुयोगी. तर्हि सभ्यमहोदय वदतु, वृष्टिजलाभावस्थले प्रतियोगी अनुयोगी कः इति?
वृष्टिजलाभावे प्रतियोगी इति अस्ति वृष्टिजलम्, एवं विशेषाभावः इति अनुयोगी.
हा, अथवा वृष्टिजलाभावः इति अनुयोगी. घटाभावस्थले
कुत्र? घटाभावस्थले आमां, घटाभावस्थले घटः इति प्रतियोगी, घटाभावः अनियोगी.
अनियोगी, समीचीनम्. अस्तु, वारं वारं शृणुमः प्रतियोगी अनियोगी इति कृत्वा, तदर्थम् अभ्यासः किञ्चित् भवतु इति. अस्तु, इति अभावस्य त्रैविध्यम् अत्र दृष्टम्, अपि च जानीमः यत् प्रतियोगिताः भिन्नाः इति. अग्रे प्रश्नः उदेति यत् अस्तु, प्रतियोगिताः भिन्नाः सन्ति चेत् प्रत्येकम् अभावस्य, यथा वयं दृष्टवन्तः, तर्हि कथं जानीमः एका प्रतियोगिता अपरस्याः भिन्ना इति कथं जानीमः इति प्रश्नः उदेति. तदर्थम् अवच्छेदकत्वपदार्थवर्णनम् इति अग्रिमविषयः. प्रथमपरिच्छेदं पठति वा सभ्यमहोदय?
आमां भगिनि. त्रयाणां मेषां जलमेव प्रतियोगी, तथापि जलनिष्ठप्रतियोगितानां परस्परं भेदः आनुभविकः. अन्यः खलु सर्वेषु जलेषु विद्यमानः सामान्यभावस्य विरोधः, ततः अन्य एव वृष्टिजले विद्यमानविरोधः, तस्य च सम्यक् ज्ञानार्थं तत्रैव च अवच्छेदक अवच्छेदावच्छेदकभावम् अपि पश्यामः. तर्हि वयं तत्र दृष्टवन्तः अभाव तिस्रः अभावाः सन्ति, सामान्य अभावः, विशेष अभावः एवं विशेषविशेष अभावः. तर्हि तत्र त्रिषु स्थलेषु जलमेव प्रतियोगी अस्ति. तर्हि प्रथमे कोऽपि जलं सामान्य अभावे, विशेषभावे केवलं वृष्टिजलम्, एवं विशेषविशेष अभावे स्वातिनक्षत्रवृष्टिजलं. परन्तु सर्वत्र जलमेव प्रतियोगी इति अस्ति. तर्हि सर्वत्र जलनिष्ठप्रतियोगिता इति वदामः. तर्हि प्रथमे जलनिष्ठ, द्वितीये वृष्टिजलनिष्ठ, एवं तृतीये स्वातिनक्षत्रवृष्टिजलनिष्ठ इति वदामः. जलनिष्ठप्रतियोगिता इति वयं दृष्टवन्तः. अन्यः खलु सर्वेषु जलेषु विद्यमानः सामान्य अभावस्य विरोधः. तर्हि सामान्य अभाव खले तत्र सामान्य अभावस्थले तत्र सर्वेषु जलेषु सामान्य अभावः अस्ति, परन्तु विशेष अभावे केवलं वृष्टिजले अस्ति, एवं स्वातिनक्षत्रजले विशेषविशेष अभावः अस्ति. तर्हि भेदं कथं जानीमः, तत्र प्रतियोगिता कुत्र अस्ति? तर्हि अन्य कोऽपि नामकरणम् इति, नूतननामम् इति आवश्यकम् अस्ति. तत्र अवच्छेदक अवच्छेदावच्छेदकभावम् इति पश्यामः अग्रे.
हा, नूतनमार्गः अपेक्षितः भिन्नतां प्रदर्शयितुम्. अस्तु, समीचीनम्. अयमेव अवच्छेद्यावच्छेदकभावः इति उच्यते. अस्तु, अत्र तस्य उदाहरणार्थम् अग्रे पात्रं क्षीरम् इत्यस्य उदाहरणस्य माध्यमेन अवच्छेदकः इत्युक्ते कः, अवच्छेद्यम् इत्युक्ते किम् इति सर्वं प्रदर्शितमस्ति. किञ्चित् वदामि तत्र. तर्हि कोऽपि क्षीरम् इच्छति, अस्तु, तस्मै केवलं द्रोणपञ्चकपरिमितं क्षीरम् अपेक्षितमस्ति. तर्हि द्रोणपञ्चकम् इति, द्रोणः इत्युक्ते तत्र ट्रफ् अथवा बकेट् तथा किमपि कण्टेनर् अस्ति, अस्तु, द्रोणपञ्चकपरिमितम् इति कश्चन परिमाणमस्ति. तावत् क्षीरं कस्मैश्चित् आवश्यकमस्ति. तर्हि सः जनः आपणं गच्छति चेत् क्षीरस्य क्रयणार्थं, तर्हि किं करोति, द्रोणपञ्चकपरिमितं पात्रमेव नयति. तेन आपणे विद्यमानः जनः जानाति यत् अस्तु, द्रोणपञ्चकपरिमितं क्षीरमेव अपेक्षितं, तावत् ददामि इति. इदानीं द्रोणदशपरिमितं क्षीरम् आवश्यकं चेत् बृहत् पात्रं नयति, खलु, तदा जानाति यत् अस्तु, एतस्मै इतोपि अधिकं क्षीरम् आवश्यकं, द्रोणदशपरिमितं क्षीरम् आवश्यकम् इति. तर्हि अन्ततो गत्वा तद् पात्रं किं करोति, पात्रं क्षीरस्य अवच्छेदनं करोति. पात्रम् अवच्छेदकम्, अवच्छेदनम् इत्युक्ते भिन्नतां प्रदर्शयति इति. अवच्छेदकः इत्यस्मिन् कीदृशप्रत्ययः, कोऽपि वदति वा? अवच्छेदकः इत्यस्मिन् यथा गायकः, नायकः,
नुल् वा भगिनि?
हा हा, नुल् प्रत्ययः, समीचीनं. नुल् प्रत्ययः कर्तृत्वे विधीयते, खलु, यः गायति सः गायकः, यः कार्यं करोति कारकः, यः नयति नायकः, यः पचति पाचकः, तथा अवच्छेदकः इत्युक्ते यः अवच्छेदनं करोति. अवच्छेदनम् इत्युक्ते अत्र भिन्नतायाः प्रदर्शनम् इति चिन्तयतु. तर्हि क्षीर अपि च पात्रम् इत्यस्य उदाहरणे पात्रम् अवच्छेदकम् अस्ति, यतोहि क्षीरे भेदः अस्ति इति प्रदर्शयति. द्रोणपञ्चक परिमितपात्रे विद्यमानं क्षीरं द्रोणदशपरिमितं पात्रे विद्यमानक्षीरात् भिन्नः इति प्रदर्शयति पात्रमेव. अतः पात्रम् अवच्छेदकं, पात्रे अवच्छेदका अस्ति, क्षीरम् अवच्छेद्या इति उच्यते. अवच्छेद्या इति कर्मण्यते विधीयमानः प्रत्ययः, तत्र ण्यत् इति प्रत्ययः, यथा करणीयं कर्तव्यम् इति अस्ति खलु, तद्वत् कार्यम् इति समानमेव अर्थः. अवच्छेद्य इत्युक्ते अवच्छेदनीयं, तादृश अर्थे ण्यत् इति प्रत्ययः विधीयते. यस्य कस्यापि भिन्नता प्रदर्शिता भवति सः अवच्छेद्यः अथवा तद् अवच्छेद्यम् इति वदामः. अस्तु, तर्हि इदानीं जानीमः यत् पात्रे अवच्छेदकता, क्षीरे अवच्छेद्यता. तर्हि सव्यमहोदय तत् चित्रं किञ्चित् परिशीलयति वा?
आमां भगिनि, तत्र पात्रमिति अधिकरणम् अस्ति.
अस्मिन् सन्दर्भे पात्रं किम् अस्ति?
अस्मिन् सन्दर्भे हा पात्रम् अत्र पात्रे अवच्छेदकता इति अस्ति. अस्मिन्
इत्युक्ते पात्रम् अवच्छेदकम्.
हा, पात्रम् अवच्छेदकं. तत्र क्षीरं कुत्र, द्विपञ्चकम् अस्ति वा अथवा चतुर्पञ्चकम् अस्ति वा, किम् अस्ति तत्र परिमाणं, तत्र पात्रं क्षीरे किं भिन्नता, क्षीरपरिमाणे भिन्नता अस्ति वा न वा पात्रं दर्शयति. तर्हि पात्रे पात्रम् अवच्छेदकम्.
हा, अवच्छेद्यं किम् अत्र?
क्षीरम् अस्ति अवच्छेद्यम्.
अस्तु, तर्हि चित्रस्य वर्णनं करोतु. निष्ठा आश्रयः
पात्रनिष्ठ अवच्छेदकतानिरूपिता अवच्छेद्यताश्रयः क्षीरम् अथवा क्षीरनिष्ठ अवच्छेद्यतानिरूपित अवच्छेदकताश्रयः पात्रम्.
हा, समीचीनमस्ति. तर्हि अवच्छेदक अवच्छेद्य अवच्छेदकभावः निरूपितः अधुना महोदयेन. अयमेव सिद्धान्तः अधुना अत्र कार्यं करोति. प्रतियोगिताः भिन्नाः कथम् इति प्रदर्शयितुम् एकः अवच्छेदकः आवश्यकः. प्रतियोगिता भवति अवच्छेद्य इति पश्येम. अग्रिमपुटं पश्यन्तु. अस्तु, तत्र प्रथमपरिच्छेदे वयं यत्किमपि चर्चितवन्तः तदेव उक्तमस्ति. जलसामान्याभावस्य प्रतियोगिता सर्वस्मिन् जले, वृष्टिजलाभावस्य वृष्टिजले, स्वातिनक्षत्रीयवृष्टिजलाभावस्य प्रतियोगिता केवलं स्वातिनक्षत्रवृष्टिजले. अधुना अस्माकं कार्यमस्ति एतेषु अभावेषु याः याः प्रतियोगिताः भवन्ति तेषां निरूपणम् अवच्छेदक अवच्छेद्य इत्यनेन इत्यस्य माध्यमेन इति. अग्रे पश्येम कथं भवति इति. सरला भगिनी द्वितीयपरिच्छेदं पठति वा? यद्यपि
भगिनि, यद्यपि स्वातिनक्षत्रीयवृष्टिजलाभावस्य प्रतियोगिता स्वातिनक्षत्रीयवृष्टिजले एव नान्यस्मिन् जले, वृष्टिजलाभावस्य प्रतियोगिता वृष्टिजले एव न तु अन्यस्मिन् जले इति प्रतियोगितयोः आश्रयोः उभयत्र भिन्नौ. अतः आश्रयभेदात् प्रतियोगिताभेदः ज्ञातुं शक्यः. तथापि जलं नास्ति सामान्याभावस्य प्रतियोगिता यथा कूपजले वर्तते तथा वृष्टजलेऽपि वर्तते. स्वातिनक्षत्रीयवृष्टिजलेऽपि वर्तते इति प्रतियोगितायाः आश्रयाः सर्वाणि जलानि भवन्ति. अतः आश्रयभेदेन प्रतियोगिताभेदं न साधयितुं प्रभवामः विचारमेन चित्ररूपेण पश्यामः. पुनः एतत् विचारमस्ति, स्वातिनक्षत्रीयवृष्टिजले यः अभावः अस्ति तस्य प्रतियोगिता स्वातिनक्षत्रवृष्टिजले अस्ति. स्वातिनक्षत्रवृष्टिजले केवलम् अस्ति, न तु वृष्टिजले वा सामान्यजले नद्याः वा कूपा जले विशेषवृष्टि स्वातिनक्षत्रवृष्टिजलस्य अभावस्य प्रतियोगिता अस्ति. तथैव वृष्टिजलाभावे प्रतियोगिता वृष्टिजले अस्ति न तु अन्यस्मिन् जले. सो एते वृष्टिजल वा स्वातिनस्य जल तयोः मध्ये या प्रतियोगिता अस्ति सा सामान्यजले नास्ति. अत्र तस्य आश्रयो भिन्नौ अस्ति, स्वातिनस्य जले.
न न, एकनिमिष भगिनि. या प्रतियोगिता, अस्तु, यादृशी प्रतियोगिता वृष्टिजले अथवा स्वातिनक्षत्रीयवृष्टिजले अस्ति, सा प्रतियोगिता सामान्यजलाभावं निवारयितुं शक्नोति वा?
आं
शक्नोति खलु. सा एव प्रतियोगिता सामान्यजलाभावं निवारयितुं शक्नोति. अपि च हा, सा प्रतियोगिता एव वृष्टिजलाभावम् अपि निवारयितुं शक्नोति इति वार्ता खलु. तर्हि वृष्टिजलाभावे प्रतियोगिताद्वयम् अस्ति.
वृष्टिजलाभावे प्रतियोगिता सामान्यजलस्य अभावस्य प्रतियोगिता अस्ति, अपि वृष्टिजलस्य अभावस्य प्रतियोगिता अस्ति.
हा, इति वार्ता अत्र खलु. तद्वत् स्वातिनक्षत्रीयवृष्टिजले अपि तादृशी एव
जलाभावस्य अपि सामान्यजलस्य अभ्यास अपि स्वातिनक्षत्रीयजलस्य अभावस्य
तिस्रः पत्प्रतियोगिताः. हा, समीचीनम् इति अस्ति. तर्हि प्रश्नः उदेति, तर्हि तिस्रः प्रतियोगिताः एकस्मिन् आश्रये खलु, स्वातिनक्षत्रीयवृष्टिजलजले वृष्टिजलाभावं
प्रतियोगिताः सन्ति.
हा, सन्ति. तर्हि अधुना प्रश्नः उदेति, तर्हि केवलम् आश्रयभेदं दृष्ट्वा प्रतियोगितायाः भिन्नतां वक्तुं न शक्नुमः इति. तदङ्गीक्रियते वा सर्वैः? तदर्थम् इतोपि एकं माध्यमम् आवश्यकम् अवच्छेदकत्वेन खलु. हा, क्षीरस्थले तु पात्रम् अथवा अधिकरणं दृष्ट्वा क्षीरं भिन्नम् आदेयः भिन्नः इति वयम् आदेयं भिन्नम् इति जानीमः. अत्र तादृशी स्थितिः नास्ति इति चित्रेषु अपि विवृतमस्ति. स्वातिनक्षत्रीयवृष्टिजल हा इति अस्ति. स्वातिनक्षत्रीयजलाभावस्य प्रतियोगिता स्वातिनक्षत्रीयवृष्टिजले एव, न सर्ववृष्टिजले. वृष्टिजलाभावस्य प्रतियोग वृष्टिजले एव, न तु कूपजले अन्यत्र. परन्तु नास्ति, परन्तु यथा भवती सूचितवती, स्वातिनक्षत्रीयवृष्टिजले वृष्टिजलाभावस्य प्रतियोगिता तु अस्ति एव.
अपि सामान्य जलस्य प्रतियोगिता अपि अस्ति.
हा, तर्हि पुनः तस्मिन् चित्रे अपि जलाभावः सामान्य.
तर्हि तृतीयचित्रे सामान्यजलस्य अभाव नियोगिता निरूपितप्रतियोगिता आश्रय कूपजले वृष्टजले स्वातिनस्य वृष्टिजले अपि. अत्र प्रतियोगितायाः आश्रयत्रय त्रीणि जलानि त्रीणि जले 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 जलानाम् अस्ति.
हा, त्रिषु जलेषु अस्ति इति सत्यम्. अपि च यथा वयं दृष्टवन्तः, स्वातिनक्षत्रीयवृष्टिजले तिस्रः प्रतियोगिताः
तदर्थम् आश्रय भिन्ना कर्तुं शक्नुमः.
हा, इति अस्ति. अस्तु, अग्रे पठतु इह.
इह अस्याः प्रतियोगितायाः आश्रयः न भिद्यते, किन्तु सर्वाणि जलानि अति आश्रयभेदात् इयं प्रतियोगिता अन्ययोः प्रतियोगितयोः भिन्ना अन्या इति न ज्ञायते. अतः तासां भेदसाधनाय अवच्छेदकस्य अपेक्षा वर्तते. आश्रयभेदात् वयं प्रतियोगितायाः भेद न ज्ञातुं शक्नुमः. अतः नूतनम् अन्यप्रकारं साधितुम् आवश्यकं भवति. तस्य अवच्छेदक भाव भेदसाधनाय अवच्छेदकस्य अपेक्षा वर्तते.
हा, समीचीनम्. अधुना अवच्छेदकः, सः अवच्छेदकः कः इति पश्येम अग्रे. अस्तु, अग्रे अखिला भगिनी, अग्रिमपरिच्छेदं. अचला भगिनि
अस्मि भगिनि सर्वत्र इति तस्मात् खलु
न अत्र इदं ज्ञेयं त्रयोविंशतितमपुटे अत्र इदं ज्ञेयम् इति अस्ति द्वितीयः परिच्छेदः
अत्र इदं नेयं प्रतियोगिनी यत् विशेषणं प्रतियोगिनः उल्लेखः येन रूपेण धर्मेण क्रियते तत् प्रतियोगितायाः अवच्छेदकं यथा जलं नास्ति इति अभावः उक्तः जले च प्रतियोगिनी सन्ति जलत्वद्रव्यत्वसत्तादयो धर्माः परन्तु अभावकथनाय जलं नास्ति इत्येव उक्तमिति जलत्वेन एव जलस्य उल्लेखः कृतः अतः तत् प्रतियोगिता अवच्छेदकम् इत्युक्ते अत्र प्रतियोगिनी इदानीं तत्र प्रतियोगिनी यत् विशेषणमस्ति तस्य विषये अस्ति इत्युक्ते प्रतियोगिनी यः धर्मः अस्ति सा एव प्रतियोगिता इति वयं दृष्टवन्तः तत्र प्रतियोगिता क्षम्यतां प्रतियोगिनी यः धर्मः अस्ति तत् प्रतियोगिता इति दृष्टवन्तः इदानीं प्रतियोगितायाः अवच्छेदकम् अवच्छेद्यं कथं भवति इति पश्यामः चेत् अत्र प्रतियोगिनी यः धर्मः विद्यते तेन धर्मेन एव प्रतियोगितायाः अवच्छेदकं भवति इत्युक्ते इदानीम् अत्र जलम् इति स्वीकुर्मः चेत् जले जलत्वमस्ति द्रव्यत्वमस्ति अपि च सत्ता इत्यपि धर्मः अस्ति तर्हि अत्र यदा अभावम् इति वदामः चेत् तत्र जलं नास्ति इति वदामः न तु द्रव्यं नास्ति इति अन्य किमपि इति कृत्वा जले विद्यमानं तत्र यज्जलत्वम् इति तत्र धर्मः अस्ति तेन धर्मेन एव प्रतियोगितायाः अवच्छेदकं भवति तर्हि जलत्वेन अवच्छिन्ना प्रतियोगिता इति वयं वदामः अत्र
हा समीचीनं भगिनि तर्हि अत्र अवच्छेदकधर्मः
एकः प्रश्नः अत्र अनुयोगिता इत्युक्ते उपस्थिति प्रतियोगिता इत्युक्ते अनुपस्थिति वा
न महोदय तत्र कस्मिन् पुटे अस्ति अष्टादशे पुटे पश्यतु एकं चित्रम् अस्ति रत्ना भगिनी आरम्भे उक्तवती एतद् खलु अष्टादशे पुटे एकं चित्रमस्ति उपरितनभागे घटे एकः विरोधः अस्ति घटे कं प्रति विरोधः घटाभावं प्रति विरोधः अस्ति अस्तु घटाभावे विरोधः अपि अस्ति यतोहि यदा घटाभावः भवति तत्र घटः न भवति घटे सति घटाभावः नश्यति इति तादृशविरोधः उभयोः मध्ये खलु तदर्थं विरोधस्य नामकरणं करणीयमस्ति यतोहि विरोधः उभयत्र अस्ति वस्तूनि अपि अस्ति वस्त्वाभावे अपि अस्ति इति कृत्वा घटे विद्यमानायाः विरोधस्य नाम अस्ति प्रतियोगिता अभावे विद्यमानाया विद्यमानविरोधस्य नाम अस्ति अनुयोगिता नामकरणं तावदेव लौकिकरीत्या भवान् किमपि उक्तवान् खलु तद् स्यात् भिन्नभिन्न अर्थाः स्युः प्रतियोगिता इत्यस्याः परन्तु न्यायव्यवहारे प्रतियोगिता इति एकविधविरोधः अनुयोगिता इति अभावे विद्यमानः विरोधः तावदेव
अनुयोगिता इत्युक्ते धर्मस्य अभावः वा
न अस्मिन् चित्रे घटस्य अभावः खलु घटस्य अभावः अस्ति अस्तु तर्हि घटाभावे घटं प्रति विरोधः अस्ति इति जानीमः खलु पश्यतु घटाभावस्य उपरि अपि विरोधः इति उक्तं यतोहि घटाभावे विरोधः अस्ति तस्य विरोधस्य नामकरणं कृतम् अनुयोगिता इति तावदेव
तर्हि घटः अभावः द्वे अपि म्यूचुवलि एक्स्क्लूसिव् इति तेषां वर्तनं, तर्हि प्रतियोगिता
तद् म्यूचुवल् एक्स्क्लूसिविटि इति यद् उक्तवान् भवान् तदेव सहानावस्थानरूपः विरोधः
तर्हि आङ्ग्लभाषायां प्रतियोगिता अनियोगिता इत्युक्ते शब्दस्तः वा?
हा अस्ति, तदेव उक्तवती अहं. लौकिकभाषायां लौकिकव्यवहारे प्रतियोगिता इति प्रायः काम्पिटिशन् इति चिन्तयामि, खलु? कोऽपि जानाति वा? तथा किमपि स्यात्, परन्तु न्यायव्यवहारे घटे एकः विरोधः अस्ति, तस्य नाम अस्ति प्रतियोगिता. अभावे एकः, घटाभावे एकः अस्ति, तस्य नाम अनुयोगिता. केवलं घटाभावे अनुयोगिता इति न, सर्वत्र. अग्रिमपुटे पश्यतु, विंशतितमपुटे पश्यतु, एकं चित्रमस्ति खलु, तत्र वृष्टिजलाभावः प्रदर्शितः अस्ति. तर्हि वृष्टिजलाभावं प्रति वृष्टिजलस्य विरोधः अस्ति खलु, तस्य नाम प्रतियोगिता. वृष्टिजले प्रतियोगिता अस्ति, वृष्टिजलाभावे अपि अनुयोगिता अस्ति. सा प्रतियोगिता कीदृशी इति वर्णनार्थम् एतत् सर्वं वयम् उपयुज्महे. वृष्टिजलनिष्ठ, क्षम्यतां, वृष्टिजलाभावनिष्ठ अनुयोगितानिरूपितप्रतियोगिता तथा वक्तुं शक्नुमः.
सर्वदा अभावसमये अनियोगिता भवति वा?
हा, अभावे विद्यमानविरोधः अनुयोगिता इत्येव अस्ति. परन्तु अधुना अग्रे गत्वा वयं दृष्टवन्तः यत् प्रतियोगिताः भिन्नभिन्नाः भवन्ति खलु. वृष्टिजले वृष्टिजलाभावं प्रति प्रतियोगिता अस्ति, सामान्यजलाभावं प्रति अपि प्रतियोगिता अस्ति खलु. तदर्थम् एषा प्रतियोगिता कीदृशी इति ज्ञातुम् एकः अवच्छेदकः अपेक्षितः. अवच्छेदकः इत्युक्ते यः भिन्नतां प्रदर्शयति, सः अवच्छेदकः. तदेव इदानीम् अखिला भगिनी पठितवती. तद् अवच्छेदकः, सः अवच्छेदकः अथवा तद् अवच्छेदकं किम् इत्युक्ते धर्मः. तर्हि इदानीं तच्चित्रं सम्प्रति कुत्र स्मः? त्रयोविंशतितमे पुटे भगिनी चित्रं निरूपयति, तद् पश्यतु. अस्तु भगिनि.
अस्तु.
आं भगिनि, अत्र जलमस्ति, तर्हि जले प्रतियोगिता अस्ति, जले जलत्वम् अपि अस्ति. तर्हि वयं वदामः जलनिष्ठ जलत्व अवच्छिन्ना प्रतियोगिता इति, यदा प्रतियोगितायाः वर्णनं क्रियते चेत्.
समीचीनं, जलत्वावच्छिन्न प्रतियोगिता इति सामान्यव्यवहारः, अग्रे गत्वा पश्येम. किन्तु सामान्यरीत्या वदामश्चेत् अत्र अवच्छेदकः कः भगिनि?
अत्र अवच्छेदकः अस्ति जलत्वं.
हा, जलत्वं प्रतियोगिताम् अवच्छेदयति अथवा प्रतियोगितायां भिन्नता अस्ति इति प्रदर्शयति. तदर्थं जलत्वम् अवच्छेदकधर्मः इति वदामः. अवगतं जगन्नाथमहोदय?
किञ्चित् किञ्चित् पुनः सर्वं पठनीयम्.
अस्तु, अग्रे गत्वा स्पष्टं भविष्यति इति मम विश्वासः. अग्रे गच्छेम किञ्चित् तर्हि. अस्तु भगिनि, अग्रे.
हा, इदानीं यथा पूर्वम् अस्माभिः दृष्टं, तत्र सामान्यजलम् इति जलं, तदनन्तरं वृष्टिजलं, तदनन्तरं स्वातिनक्षत्र नक्षत्रीयवृष्टिजलम् इति तत्र अंश विषयत्रयं वयं दृष्टवन्तः. तर्हि इदानीं वृष्टिजलं पश्यामः चेत्, वृष्टिजले वस्तुतः जलत्वं, वृष्टिजलत्वमपि अस्ति, जलत्वमपि अस्ति, द्रव्यत्वं तत्सर्वमपि अस्ति. परन्तु इदानीं वृष्टिजले विद्यमाना प्रतियोगिता का इति वदामः चेत्, अत्र जलत्वम् इति स्वीकुर्मः चेत् तत्र जले विद्यमाना प्रतियोगिता अपि च वृष्टिजले विद्यमाना प्रतियोगिता, तयोः मध्ये भेदस्थापनं कर्तुं न शक्नुमः इति कृत्वा वृष्टिजलम् इति यदस्ति तस्मिन् विद्यमाना प्रतियोगितायाः अवच्छेदकधर्मः भवति वृष्टिजले विद्यमानधर्मः वृष्टिजलत्वम् इति. तर्हि वृष्टिजलं तस्मिन् विद्यमानं वृष्टिजलत्वम् इति अवच्छेदकधर्मः तद् अवच्छेदयति प्रतियोगिताम्.
हा समीचीनं भगिनि. अस्तु अग्रिमचित्रमपि तथैव किञ्चित् वदति वा?
हा तद्वत् स्वातिनक्षत्रीयवृष्टिजलम् इति स्वीकुर्मः चेत् तत्र तस्मिन् विद्यमानं स्वातिनक्षत्रीयवृष्टिजलत्वम् इति अवच्छेदकधर्मः स च धर्मः अवच्छेदयति स्वातिनक्षत्रीयवृष्टिजले विद्यमाना प्रतियोगिता.
अस्तु सम्यक् इति अस्ति. तर्हि एकः धर्मः अस्ति सर्वेषु खलु. धर्मस्य माध्यमेन प्रतियोगिता भिन्ना इति प्रदर्शयामः. कथम् इति अग्रिमचित्रे अस्ति. पश्यन्तु यत्र अवच्छेदक वदतु महोदय.
प्रश्नः अस्ति अत्र वृष्टिजलत्वं जलत्वं तयोः कः सम्बन्धः? वृष्टिजलत्वं जलस्य अवच्छेदकं भवति वा?
भवानेव चिन्तयतु पराजातिः अपराजातिः इति.
ओ जातिविषयं केवलं वा? अस्तु
हा तथा एव इति वक्तुं शक्नुमः. तयोः सम्बन्धः तावदेव जलत्वं वृष्टिजलत्वापेक्षया पराजातिः अपि च विपरीतदिशि. अस्तु महोदय. अस्तु अग्रिमभागे कथम् अवच्छेदकं भवति जलत्वम् अथवा कथम् अवच्छेदकं भवति वृष्टिजलत्वम् इति चित्रस्य माध्यमेन प्रदर्शितमस्ति. तर्हि वयं जानीमः अवच्छेद्य अवच्छेदकभावे यथा सर्वत्र आसीत् तत्र तद्वत् अत्रापि साकांक्षा पदार्थौ द्वौ स्तः इत्युक्ते अवच्छेदकम् इति एकम् अवच्छेद्या अथवा अवच्छेद्यः इति अपरमस्ति. चित्रं विद्याशङ्करमहोदय तर्हि एवं करोतु अधस्तनचित्रे अवच्छेदकं किम् अवच्छेद्या का अपि च अवच्छेदकता कुत्र वर्तते इति सर्वस्य विवरणं कृत्वा चित्रस्य वामभागे यदस्ति तदेव किञ्चित् विवृणोतु.
तत्र चित्रे अधः जलमस्ति जले जलत्वम् अस्ति जलत्वं जलस्य अवच्छेदकः.
एकनिमिषः जलत्वं कस्य अवच्छेदकः?
प्रतियोगितायाः.
तर्हि अवच्छेदकं किम् इति प्रश्ने कृते उत्तरं किं तत्र?
अवच्छेदकं जलत्वं.
अवच्छेद्य
प्रतियोगिता.
सत्यं. तर्हि अनयोः मध्ये अवच्छेद्य अवच्छेदकभावः अस्ति न वा? अस्ति खलु जलत्वं प्रतियोगिता.
परन्तु एषा प्रतियोगिता जलनिष्ठ प्रतियोगिता एव न सामान्यप्रतियोगिता न वा? जलनिष्ठ प्रतियोगितायाः अवच्छेदकः जलनिष्ठ जलत्वं.
हा समीचीनं महोदय. अस्तु तर्हि इदानीम् एतत् सर्वम् उपयुज्य यान् विषयान् भवान् उक्तवान् तत् सर्वम् उपयुज्य प्रतियोगितायाः वर्णनं करोतु.
जलत्वनिष्ठ जलदुष्ट जलत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यता आश्रयः जलनिष्ठ प्रतियोगिता.
हा बहु समीचीनमस्ति तावदेव. तर्हि प्रतियोगिता कीदृशी इति भवान् उक्तवान् तस्यैव किञ्चित् एक्स्टेन्शन् कृत्वा अनियोगिता कीदृशी इति वदतु अथवा अभावः कीदृशः इति वदतु.
जलनिष्ठप्रतियोगिता निरूपिता
इति सुलभः मार्गः जलनिष्ठप्रतियोगिता निरूपित अनुयोगिताश्रयः अभावः. अहं किम् इच्छामि इति चेत् जलत्वम् इत्यादिकं सर्वम्
जलनिष्ठ जलत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेदिता आश्रयः जलनिष्ठप्रतियोगिताया निरूपिता अनुयोगिता आश्रयः जलाभावः.
हा बहु समीचीनम् इति जलाभावस्य वर्णनं जातम्. अपि च अत्र या प्रतियोगिता अस्ति सा विशिष्टा प्रतियोगिता इत्युक्ते स्पेसिफिक् अस्ति, यतोहि जलत्वेन अवच्छिन्ना अस्ति, नाम जलत्वम् अवच्छेदकम् अस्ति इति जानीमः. अस्तु महोदय, तद्वत् अग्रिमचित्रमपि निरूपयितुं शक्नोति वा?
हा, वृष्टिजलम् इति अस्ति, तस्मिन् वृष्टिजलत्वम् अस्ति अस्ति वृष्टिजलत्व वृष्टिजलनिष्ठ वृष्टिजलत्वं निष्ठ अवच्छेदकता निरूपित अवच्छेद्यता आश्रय वृष्टिजल आश्रयः जलनिष्ठ वृष्टिजलनिष्ठ प्रतियोगिता.
हा, पुनः प्रतियोगिता माध्यमेन अनुयोगिता वर्णनम् अपि क्षम्यताम् अभाववर्णनं
सम्पूर्ण वृष्टिजलनिष्ठ वृष्टिजलत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेदित आश्रय आश्रयः वृष्टिजलनिष्ठ प्रतियोगिता निरूपित निरूपित अनुयोगित आश्रयः वृष्टिजल अभावः.
वृष्टिजलाभावः इति अभावनिरूपणम्. अधुना अभावात् आरभ्य वृष्टिजलं वृष्टिजलत्वं कीदृशम् इति वक्तुमिच्छामश्चेत्?
अभावनिष्ठ अनियोगिता निरूपित वृष्टिजलनिष्ठ प्रतियोगिता अवच्छेद्यता निरूपित अवच्छेदकता आश्रयः वृष्टिजलनिष्ठ वृष्टिजलत्वम्.
हा, बहु समीचीनं, तावदेव अस्ति. अवच्छेदकः अपि च अवच्छेद्यः अथवा अवच्छेदकम् अथवा अवच्छेद्या का इति जानीमश्चेत् तयोः मध्ये निरूपकनिरूप्यभावः तु वर्तते एव. तद् उपयुज्य एतस्य सर्वस्य विवरणं दातुं शक्नुमः. अस्तु महोदय, अग्रिमचित्रमपि भवान् एव प्रदर्शयतु किञ्चित्.
तद् किमपि नास्ति, स्वातिनक्षत्र
योजनीयं
स्वातिनक्षत्रीयवृष्टिजलं. तत्र किं धर्मः? स्वातिनक्षत्रीयवृष्टिजलत्वं धर्मः अस्ति. स्वातिनक्षत्रीयवृष्टिजलनिष्ठ स्वातिनक्षत्रीयवृष्टिजलत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेदित आश्रयः स्वातिनक्षत्रीयवृष्टिजलनिष्ठ प्रतियोगिता तया निरूपिता अनियोगित आश्रयः स्वातिनक्षत्रीयजलवृष्टि अभावः.
हा, बहु समीचीनमस्ति, तथा एव निरूपणं भवति. अपि च अस्य चित्रस्य वामभागे यत्किमपि अस्ति प्रतियोगितापर्यन्तं यत्किमपि विवृतम् आसीत् अवच्छेदकता निरूपित अवच्छेद्यता आश्रयप्रतियोगिता, एतत् सर्वं लघुना वाक्येन अथवा लघुमार्गेण वृष्टिजलत्वावच्छिन्नप्रतियोगिता अथवा स्वातिनक्षत्रीयवृष्टिजलत्वावच्छिन्ना प्रतियोगिता अथवा जलत्वावच्छिन्ना प्रतियोगिता इति लघुवाक्येन अपि वक्तुं शक्यते. दीर्घमार्गः अस्ति जलनिष्ठजलत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यता आश्रयः जलनिष्ठप्रतियोगिता इति दीर्घमार्गः. लघुना उपायेन जलत्वावच्छिन्नप्रतियोगिता इति वक्तुं शक्नुमः. तत्रापि सुस्पष्टं भवति, जलत्वम् इति अवच्छेदकं जलत्वेन प्रतियोगिता अवच्छिन्ना भवति इति सुस्पष्टं भवति तत्रापि इति अस्ति. अस्तु, इदानीम् इतोपि एकम् अभ्यासं कुर्मः. एकः बालकः अस्ति, अस्तु, बालके बालकत्वं, बालके मनुष्यत्वम् अपि च बालके छात्रत्वम् इति धर्मत्रयमस्ति. धर्मत्रयमस्ति एकस्मिन्नेव बालके बालकत्वं मनुष्यत्वं छात्रत्वम् इति अस्ति. तर्हि एकस्य जनस्य दृष्ट्या बालकाभावः अस्ति, अपरस्य जनस्य दृष्ट्या मनुष्यत्वस्य मनुष्याभावः अस्ति, तर्हि अपरस्य जनस्य दृष्ट्या छात्राभावः अस्ति. अस्तु, तर्हि जगन्नाथमहोदय अधुना भवतु वदतु, बालकः यः अस्ति, बालके कं अभावं प्रति प्रतियोगिता अस्ति?
मनुष्यत्वं मनुष्य त्रयाणामपि त्रयाणाम् अभावत्वविषये प्रतियोगिता अस्ति।
हा, बहु समीचीनं महोदय। तर्हि व्यवहारः एवं भवति, बालके अभावत्रयं प्रति प्रतियोगिता अस्ति इति। अस्तु, तर्हि बालके कति प्रतियोगिताः सन्ति?
त्रीणि, तिस्रः
तिस्रः सन्ति। अस्तु, समीचीनमस्ति। तर्हि अधुना प्रयत्नं करोति वा, यथा विद्याशङ्करमहोदय उक्तवान् पूर्वस्मिन् पुटे चतुर्विंशतितमे पुटे पश्यतु, किं करणीयम् इत्युक्ते, प्रथमतया वयं जानीमः, यद्यपि बालकः इति एकः, तस्मिन् तिस्रः प्रतियोगिताः सन्ति इति जानीमः खलु। तर्हि यस्य दृष्ट्या यः अभावः अस्ति तस्य निवारणार्थम् एकत्र बालकत्वम् उपयुज्यते, अपरत्र मनुष्यत्वम् उपयुज्यते, अपरत्र छात्रत्वम् उपयुज्यते। इदानीं भवान् वक्तुं शक्नोति वा, बालकम् इति स्थापयित्वा बालके बालकत्वम् अस्ति इति चिन्तयित्वा प्रतियोगितावर्णनं करोति वा?
कस्मिन् चित्रे?
अस्तु, चित्रं
द्वात्रिंशत् वा, तादृशं वा? वयं अस्तु, जलम् जलत्वम् अवच्छेदकता अवच्छेद्य प्रतियोगिता निरूपिता तद्वा?
हा, तत्र जलस्य स्थाने बालकः इति स्थापयतु। तर्हि बालके कीदृशधर्मः वर्तते?
ओ, बालके बालकत्वं बालकत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यता आश्रय प्रतियोगिता।
हा, बहु समीचीनमस्ति महोदय। केवलं बालकनिष्ठप्रतियोगिता इति वदति चेत् तत् सम्पूर्णचित्रं भवति, किन्तु बहु समीचीनतया उक्तं, बालक जलम् इत्यस्य स्थाने बालकः इति स्थापयतु, तस्मिन् बालकत्वम् अस्तु। यस्य अभावः इति उच्यते, बालकाभावः इति उच्यते चेत् बालकत्वम् अवच्छेदकधर्मः, मनुष्याभावः इति उच्यते चेत् मनुष्यत्वम् इति अवच्छेदकधर्मः। अस्तु, तर्हि बालकत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यताश्रयः पुनः बालकनिष्ठप्रतियोगिता, तया निरूपित अनुयोगिताश्रयः बालकाभावः इति भवति सम्पूर्णचित्रम्। अस्तु, इदानीं कस्यचित् दृष्ट्या मनुष्याभावः अस्ति चेत् चित्रं कथं भवति? इदानीं भवतः दृष्ट्या बालकाभावः आसीत्, तस्मिन् बालके एका प्रतियोगिता आसीत् बालकत्वावच्छिन्ना। अस्तु, मम दृष्ट्या मनुष्याभावः अस्ति इति चिन्तयतु। तर्हि मम अभावं निवारयितुं तस्य धर्मस्य उपयोगः भवति अत्र?
मनुष्यत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यता आश्रयता प्रतियोगिता
निरूपित
तस्मात् प्रतियोगिता निरूपित अनियोगिता मनुष्याभावः।
हा, बहु सम्यक् महोदय, सर्वं समीचीनमासीत्। केवलम् अधोगमनसमये आश्रयः इति स्थापनीयं, प्रतियोगिता निरूपित अनुयोगिताश्रयः मनुष्याभावः इति भवति। अस्तु, अस्तु, इतोपि एकम् अभ्यासं भवान् एव करोतु. इदानीं छात्राभावः इति चिन्तयामः. छात्रः
बालके छात्रत्वं छात्रत्वनिष्ठ अवच्छेदगता निरूपित अवच्छेद्यता आश्रय प्रतियोगिता आश्रय निरूपित अनुयोगिता आश्रय.
सम्यक् आसीत् महोदय, अग्रे.
अनियोगिता आश्रित छात्राभावः.
छात्राभावः अनुयोगिता आश्रयः इति वदामः, न तु आश्रित.
अनियोगिता आश्रयः छात्राभावः.
हा, यतोहि अभावः आश्रयः अस्ति अनुयोगितायाः, खलु? तदर्थम् आश्रयपदस्य. अस्तु, समीचीनं. तर्हि बुद्धमिति भाति. भवान् एव सर्वं कृतवान् इति कृत्वा सन्तोषजनकविषयः एव. अस्तु, नूतनतया केन केन आगतं तदभ्यन्तरे? कोऽपि अस्ति वा यः एतावत्पर्यन्तं न पठितवान्?
रवि अस्मि, किन्तु बहिः अस्मि.
अस्तु महोदय, अन्य कोऽपि?
सोमवासरे.
अस्तु अस्तु, अन्य कोऽपि अस्ति वा? अस्तु, इतः अग्रे सरेम. तर्हि अग्रे एवं प्रदर्शितमस्ति यत् यथा वयं अवच्छेदक अवच्छेद्यधर्म अवच्छेदकधर्मः सर्वत्र भवति. यज्ञदत्ते यज्ञदत्वं त्वम् इति अवच्छेदकधर्मः, आसने आसनत्वम् इति अवच्छेदकधर्मः. पुनः अवच्छेदकधर्मम् उपयुज्य आधेयतायाः निरूपणमपि भवितुमर्हति, अधिकरणतायाः निरूपणमपि भवितुमर्हति. तत् तर्हि एतद् उदाहरणमस्ति अवच्छेद्य अवच्छेदकभावः सर्वत्र भवितुमर्हति इत्यस्य. तावदेव. यज्ञदत्तः आसने अस्ति इति चेत् यज्ञदत्ते आधेयता अस्ति, आसने अधिकरणता इति प्रदर्शितं चित्रे. रत्ना भगिनी किञ्चित् विवृणोति वा चित्रम्?
अस्तु भगिनि, चतुस्त्रिंशत् किल. अस्तु, यज्ञदत्तः अस्ति. अस्तु, यज्ञदत्तनिष्ठ यज्ञनिष्ठ अवच्छेदकतानिरूपित अवच्छेद्यता आश्रयः आधेयताश्रयः यज्ञदत्तः. ताम् आधेयताम् उपयुज्य अस्तु, आसननिष्ठ आसनत्व निष्ठ अवच्छेदकता निरूपित अवच्छेद्यता आसननिष्ठ अवच्छेद्यतानिष्ठ अधिकरणता आसननिष्क्षमताम् अवच्छेद्यता आश्रय आश्रयः अधिकरणता आश्रयः आसनम्.
हा, तत् समीचीनमेव. किन्तु
आधेयता
अहम् अन्ते अधिकरणता इति इच्छामि चेत् कथं वदामः?
अस्तु, यज्ञदत्तनिष्ठ यज्ञदत्तत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यता आश्रयः आधेयता यज्ञदत्तनिष्ठ आधेयता निरूपित आसननिष्ठ आसननिष्ठ आसनत्वनिष्ठ.
एकनिमिष एकनिमिष, वस्तुतः निरूपकनिरूप्यभावः कयोः मध्ये अस्ति इति प्रथमतया अभिज्ञातव्यम्. तर्हि भवती यदुक्तवती तत्र आधेयता निरूपित अधिकरणता इत्येव पर्याप्तम्.
अस्तु
अस्तु, यथा अवच्छेदकः अवच्छेद्य अनयोः मध्ये निरूपकनिरूप्यभावः यथा अस्ति तद्वत् आधेयता अधिकरणता तद् मनसि निधाय एव वक्तव्यमस्ति. अहम् अधिकरणता अन्ते स्थापयतु इति उक्तवती यतोहि भवती आसनस्य विवरणं दत्तवती, खलु?
आम्, मम चिन्तनमासीत् आसनस्य विषयमपि स्वीकृत्य इत्युक्ते अवच्छेदताय अवच्छेदता आश्रयः अधिकरणता आधेयताय अधेयता निरूपित अधिकरणता द्वौ अपि करणीयम् इति चिन्तितवती.
हा समीचीनमेव. केवलम् आसननिष्ठ आसनत्वनिष्ठ अवच्छेदकतानिरूपित अवच्छेद्यताश्रयः आसननिष्ठ अधिकरणता इति अपि भवितुम् अर्हति इति अस्ति. अस्तु तर्हि बहूनि चित्राणि परिशीलितवन्तः. अधुना किञ्चित् पठनं कुर्मः. अग्रे भगिनि अभावस्य चतुर्विधत्वमिति.
अस्तु भगिनि, प्रकृतम् अनुसरामः. दर्शितरीत्या अभावप्रक्रियापरिज्ञानाय सामान्य अभावाः निरूपिताः. ते च अत्यन्त अभावस्य प्रभेदाः. तर्कसङ्ग्रहकृता तु अभावश्चतुर्विधः: प्रागभावः, प्रध्वंसाभावः, अत्यन्ताभावः, अन्योन्याभावः च इति दर्शितः अभावस्य विभागः. इत्युक्ते अभावस्य तर्कसङ्ग्रहे अभावस्य चतुर्विधाः इति दत्ताः. ते सन्ति प्रागभावः, प्रध्वंसाभावः, अत्यन्ताभावः, अन्योन्याभावः इति.
तर्हि अस्माभिः दृष्टाः त्रयः अभावः कीदृशाः चित्रे अस्ति?
अत्यन्ताभावस्य विविधाः.
हा समीचीनम्. अत्यन्ताभावस्य प्रकाराः सन्ति अथवा प्रभेदाः: सामान्याभावः, विशेषाभावः, विशेषविशेषः. अस्तु तर्हि एतत् तर्कसङ्ग्रहस्य मूलवाक्यमस्ति. तर्कसङ्ग्रहकृता इत्युक्ते कृता इत्युक्ते तर्कसङ्ग्रहकृत् इत्यस्य तृतीया विभक्ति, रचयिता. अस्तु तर्कसङ्ग्रहकृत् इत्युक्ते तर्कसङ्ग्रहस्य लेखकः. तेन तर्कसङ्ग्रहकृता इत्युक्ते तेन तृतीयाविभक्त्याम् अभावस्य चतुर्विधम् एवं प्रदर्शितमस्ति. अभावः चतुर्विधः इति एवम् अस्ति. इतः अग्रे गत्वा प्रागभावः इत्युक्ते किं, तद्वंशाभावस्य अर्थः कः इत्यादिकमस्ति. अग्रे पठतु भगिनि इदानीम्.
अस्तु इदानीं ग्रन्थोक्त अभावविभागानुसारेण प्रागभावः निरूप्यते. अस्ति कश्चित् घटनिर्माता. सः घटनिर्माणाय मृदमाहरति, जलं च आनयति. तेन संयुक्तां मृदं भ्रमयितुं चक्रमानयति. सिद्धं घटं चक्रात् पृथक्तुं रज्जुं च आहरति. तदा तादृशीं घटसामग्रीं दृष्ट्वा भवति ज्ञानम् अत्र घटो भविष्यति. एतत् एतादृशज्ञानं घटाभावं प्रकाशयति. इत्युक्ते एकः घटं निर्मातुम् इच्छति. सः घटनिर्माणसामग्रीम् इत्युक्ते चक्रं, मृत् रज्जुं सर्वादि इत्यादीन् आनयति, अत्र स्थापयति. तान् दृष्ट्वा वयं जानीमः अत्र घटः नास्ति इति जानीमः. अत्र घटः भविष्यति किन्तु इदानीं नास्ति, घटाभावः अस्ति इदानीम् इति जानीमः.
अग्रिमपरिच्छेदं पठतु, विषयः सम्पूर्णः भवति.
हा, अयमेव घट प्रागभावः. घटोत्पत्तेः प्राक् सामग्रीसत्त्वे घटाधिकरणे प्रतीयमानः ज्ञानमानः ज्ञायमानः. अत्रापि घटस्य अस्य अभावस्य च विरोधः, प्रतियोग्यनियोगी अभावः अस्ति. यदा प्रागभावः न तदा घटः. उत्पन्ने पुनर्घटे न घटा प्रागभावः इति अस्ति. तयोः सहानवस्थानरूपः विरोधः. तन्निरूपणप्रकारः पूर्ववज्ञातव्यः.
पूर्ववत् ज्ञातव्यः सन्धि इत्यादिकं कृत्वा पूर्ववत् ज्ञातव्यः इति
पूर्ववत् ज्ञातव्यः इत्युक्ते इदानीं प्रागभावस्य विषये उक्तमस्ति इत्युक्ते इदानीं घटः नास्ति किन्तु घटस्य किं निर्माणं भवति इति वयं घटसामग्रीं दृष्ट्वा ज्ञातुं शक्नुमः तदेव घटनिर्माणात् पूर्वं यः अभावः अस्ति सः घटप्राग् अभावः घटस्य निर्माणात् प्राक् पूर्वं यः अभावः अस्ति घटप्रागभावः इति वदामः यः घटस्य आनयनेन अथवा घटस्य निर्माणेन एषः अभावः नष्टः भवति इत्युक्ते यदा प्राग् अभावः न तदा इत्युक्ते प्राग् अभावः अस्ति चेत् तदा घटः नास्ति यदि घटस्य निर्माणः भवति तदा प्राग् अभावः नष्टः भवति द्वयोः एकस्मिन् क्षणे द्वयोः अस्तित्वम् एकस्मिन् क्षणे न भवति इति
न कदापि भवति यथा सामान्यं तथा एव सहानावस्थान सहानवस्थानरूपः विरोधः एव अस्ति अभावस्थले यथा सामान्यं किन्तु प्रागभावः इति कश्चन विशेषः विशिष्टः अभावः यतोहि कस्यचित् वस्तुनः निर्माणार्थं सामग्रीं दृष्ट्वा यद् यद् भानं भवति भानम् इत्युक्ते चिन्तनं यद् भाति ओ अस्तु अग्रे गत्वा इदं वस्तु भवति इति तादृशभानमेव प्रागभावः इति उच्यते शास्त्रे अस्तु इतः अग्रे गत्वा प्रध्वंसाभावः इत्युक्ते कः इति नीता भगिनि
आं भगिनि अग्रिमपुटे किल घटनिष्ठप्रतियोगितानिरूपित अनुयोगिताश्रयः घटप्रागभावः
इति रत्ना भगिनी उक्तवती अनन्तरं घटध्वंसः
एवं घटे मुद्गरपाते सति एवं घटे मुद्गरपाते सति अत्र घटो ध्वस्तः इति प्रतीतिः जायते एतादृशप्रतीतौ यः प्रकाश्यते सः घटध्वंसः द्वितीयः अभावः एवं घटे मुद्गरपाते सति अत्र घटो ध्वस्तः इति प्रतीतिः जायते
मुद्गरः इत्युक्ते हेमर् अस्ति तर्हि वदतु इदानीं
एवं घटे उद्गरपाते सति अत्र घटो ध्वस्तः इति प्रतीतिः जायते
मुद्गरस्य पातनेन पातनम् इत्युक्ते घटः अस्ति घटस्य उपरि मुद्गरं पातयामश्चेत्
पुनः भगिनि
मुद्गरं पातयामः पातनम् इत्युक्ते ड्रापिङ्ग् घटः अस्ति तस्मात् उपरि हेमर् स्वीकृत्य पातयति चेत् तदा घटः ध्वंसः भवति खलु तादृश अभावः घटध्वंसः अथवा प्रध्वंसाभावः इति उच्यते अभावस्य चतुर्विधत्वम् अस्ति प्रागभावः इति रत्ना भगिनी सूचितवती अधुना
प्रध्वंसाभावः
द्वितीयविधः प्रध्वंसाभावः इति अयमेव कस्यचित् नाशः भवति चेत् तत्र प्रध्वंसाभावः सृष्टः भवति अपि च यथा पूर्वं तत्रापि घटः एव प्रतियोगी प्रध्वंसाभावः अथवा घटध्वंसः अनुयोगी तस्मिन् अनुयोगिता अस्ति इति उपरितनचित्रे अस्तु अग्रे पठतु भगिनि
अत्यन्ताभावस्तु प्राक् निरूपितः भूतले घटो नास्ति इति अभावः घटत्वनिष्ठावच्छेदकता निरूपिता अवच्छेद्यतावती या प्रतियोगिता तन्निरूपकः अभावः एवं पटो नास्ति इति पटत्वावच्छिन्न प्रतियोगिताकः
अत्यन्त अभावः तु प्राग् निरूपितः इत्युक्ते उदाहरणमस्ति किम् अत्र भगिनि
अस्तु अहम् अत्यन्ताभावस्तु प्राक् निरूपितः भूतले घटो नास्ति इति अभावः
इति वयं दृष्टवन्तः खलु सामान्यतया यथा वदामः घटाभावः भूतले अस्ति इति यदा वदामः तादृश अभावः अत्यन्ताभावः तावदेव तस्य एतत् सामान्यः प्रध्वंसः न अपि च प्रागभावः अपि न भूतले घटो नास्ति उत्पीठिकायां घटो नास्ति इति यत्र यत्र प्रतीतिः भवति तादृशघटाभावः अत्यन्ताभावः अथवा भूतले घटाभावः उत्पीठिकायां घटाभावः इति यदा वदामः तादृशः अस्तु तस्य अभावस्य वर्णनं कथं क्रियते अग्रिमपङ्क्ति पठतु पङ्क्तिम्
अन्योन्याभावनिरूप
एकनिमिषं भगिनि भगिनि अग्रिमपङ्क्तिं पठतु ततः घटत्वनिष्ठ
घटत्वनिष्ठावच्छेदकता निरूपितावच्छेद्यतावती अवच्छेद्यतावती या प्रतियोगिता तन्निरूपकः अभावः
इति वयं दृष्टवन्तः खलु चतुर्विंशतितमपुटे विद्याशङ्करमहोदय तत्र जलम् अपि च जले जलत्वम् इति सर्वम् उक्तवान् तद्वदेव जलस्य स्थाने घटः इति स्थापयतु घटत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावती एका प्रतियोगिता भवति तां प्रतियोगितां निरूपयति अभावः तन्निरूपकः अभावः इत्युक्ते तां प्रतियोगितां निरूपयति तादृश अभावः अयमेव अभावः पटे अस्ति चेत् पटत्वावच्छिन्न प्रतियोगिताकः इति वदति उच्यते अस्तु प्रतियोगिताकः कस्य विशेषणमस्ति
पुनः भगिनि
पटत्वावच्छिन्न प्रतियोगिताकः इति कस्य विशेषणमस्ति भगिनि
सम्यक् न श्रूयते
न श्रूयते वा सम्यक्
इदानीं सम्यक् पुनः भगिनि
पटः नास्ति इति पटत्वावच्छिन्न प्रतियोगिता कः इति उक्तमस्ति खलु तत्र पटत्वावच्छिन्न प्रतियोगिता कः इति कस्य विशेषणम् सरला भगिनी साहाय्यं करोति वा सव्यमहोदय
तर्हि पटत्वावच्छिन्न प्रतियोगिता कः कस्य विशेषणमस्ति खलु इति पृच्छति तत्र पटः नास्ति इति अस्ति खलु
पटः नास्ति इत्युक्ते
पटाभावः
भगिनि
किं भगिनि
पटत्वनिष्ठावच्छेदकतायाः विशेषणं भवति पटत्वावच्छिन्ना प्रतियोगिता कः
हा इदानीम् एवं पटो नास्ति इत्युक्ते किं पटाभावः किल पटाभावस्य विशेषणत्वेन अस्ति पटत्वावच्छिन्न प्रतियोगिता कः पटत्वावच्छिन्न प्रतियोगिताकः कः इति प्रश्ने कृते पटाभावः इति प्रश्न उत्तरं लभ्यते खलु अस्तु तत्र भ्रमः मास्तु यतोहि प्रतियोगिता कः तत्र बहुव्रीहिसमासः अस्ति पटत्वावच्छिन्न प्रतियोगिताकः कः इति चेत् सः पटाभावः इति बहुव्रीहिसमासः पटत्वावच्छिन्न प्रतियोगिताकः कः इति समासान्त कश्चन प्रत्ययः अस्ति तस्य अर्थः अस्ति यत् प्रतियोगिता यस्य सः इति अस्य अभावस्य प्रतियोगिता कीदृशी इति चेत् पटत्वावच्छिन्न प्रतियोगिता यस्य प्रतियोगिता पटत्वावच्छिन्न प्रतियोगिता अस्ति स सः अभावः पटत्वावच्छिन्नप्रतियोगिताकः इति उच्यते. अवगतम्? अस्तु, प्रश्नः अस्ति वा अत्र? एतादृशव्यवहारः मनसि भवेत्. प्रतियोगिता कः इत्युक्ते प्रतियोगिता यस्य, सः इत्युक्ते अभावः एव. कीदृशी प्रतियोगिता? पटत्वावच्छिन्नप्रतियोगिता. तावदेव
भगिनी. अत्र प्रत्ययस्य नाम किम्? अत्र
समासान्त प्रायः डच् इति चिन्तयामि भगिनि, न जाने सम्यक्तया. यदा समासस्य पाठः भवति प्रायः तत्र स्पष्टीक्रियते, किन्तु बहुव्रीहिसमासः कश्चन प्रत्ययः इति मनसि स्यात्. यत् एतादृशव्यवहारः अस्माभिः बहुत्र दृष्टः. ज्ञानं सविषयकम् इति वदामः खलु, तत्रापि सविषयकम् इत्युक्ते विषयम् अस्य अस्ति इति, विषयेन सह यः अस्ति तादृश सविषयकपदार्थः, अथवा सावधिकम् इति वदामः, तत्रापि एतादृशः एव बहुव्रीहिसमासः. अस्तु, सभ्यमहोदय अग्रे.
आं भगिनि, अन्योन्याभावनिरूपणाय तादात्म्यसम्बन्ध्यादिनिरूपणामाद्यो क्रियते. तर्हि अन्योन्यभावनिरूपणं यदा आवश्यकमस्ति निरूपणाय इति अस्ति चतुर्थी विभक्ति, तत्र तादात्म्यसम्बन्ध्यादिनिरूपणाद्यौ क्रियते इति. निरूपणम् आदौ इति क्रियते. तर्हि तादात्म्यसम्बन्धं किम् इदानीम् अत्र पर्यन्तं वयं न जानीमः, अग्रिमपरिच्छेद इति दत्तमस्ति.
अग्रे पठतु.
द्रव्ययोः संयोगः समवायनिरूपणे उक्तः. चतुर्विंशतिपुटे अभावः, प्रतियोगिता, अनियोगिता इत्यादयः पदार्थास्तु न संयोगेन सम्बन्धाः भवन्ति, द्रव्ययोरेव संयोगः इति नियमात्, नापि समवायेन. समवायस्तु गुणगुणिनोः, क्रियावत्तोः, जातिव्यक्तोः, अवयव अवयविनोः विशेषनित्यद्रव्ययोरेव इत्युक्तमेव. अतः अभावादिपदार्थानाम् आधाराधेयभावनिर्वाहाय स्वरूपसम्बन्धः इति सम्बन्धः कल्प्यते. द्रव्ययोः संयोगः समवायनिरूपणे उक्तः इत्युक्ते द्रव्ययोः संयोगः इत्युक्ते घटकपालयोः इति समवायः इत्युक्ते, तर्हि विच्छिन्नं कुर्मः चेत् तत्र घटः इति न तिष्ठति, तर्हि समवायसम्बन्धेन घटकपालयोः संयोगः, घटकपालयोः समवायसम्बन्धः इति अस्ति. परन्तु यत् वयं पठितवन्तः यत्र अभावः एवं प्रतियोगिता अनियोगिता, एतत् पदार्थाः तत्र संयोगेन न संयोगेन सम्बन्धाः भवन्ति. इत्युक्ते संयोगः इत्युक्ते विभजनं कर्तुं शक्नुमः, परन्तु एतत् सर्वं न संयोगेन सम्बन्धाः भवन्ति. इत्युक्ते संयोगसम्बन्धः तत्र नास्ति, अन्य किमपि अस्ति. तर्हि द्रव्ययोरेव संयोगः इति नियमात्, न अपि समवायेन. द्रव्ययोरपि संयोगः नियमात् इत्युक्ते द्रव्ययोः संयोगः नियमात् अस्ति.
एकनिमिष, अत्र किम् उक्तमस्ति? अभावः, प्रतियोगिता, अनियोगिता इत्यादयः संयोगेन सम्बन्धाः न भवति. किमर्थं? द्रव्ययोः एव संयोगः इति नियमः अस्ति खलु.
आम्,
तदर्थम् अभावः प्रतियोगिता अनुयोगिता इत्यस्य सम्बन्धः कः द्रव्येण सह इति चिन्तनीयं. समवायः कुत्र कुत्र भवति महोदय?
समवायः द्रव्ये एव भवति, द्रव्यद्वयोः मध्ये इति न भवति.
द्रव्यद्वयोः मध्ये न भवति, किन्तु पञ्चसु स्थलेषु समवायः भवति खलु इति वयं दृष्टवन्तः. पञ्चसु स्थलेषु भवति समवायः, कुत्र इति अग्रिमवाक्ये अस्ति, पठतु.
पञ्चसु स्थलेषु भवति गुणगुणिनोः, क्रियाक्रियावत्तोः, जातिव्यक्तयोः, अवयव अवयविनोः एवं विशेषनित्यद्रव्ययोः इति पञ्चसु स्थलेषु समवायसम्बन्धः भवति.
हा, तर्हि अभावः कस्मिन्नपि वस्तुनि केन सम्बन्धेन भवति? संयोगः इति न वक्तुं शक्नुमः, यतोहि संयोगः द्रव्ययोः मध्ये एव. समवायः एषु पञ्चसु स्थलेषु, तर्हि नूतनसम्बन्धः अपेक्षितः, सः सम्बन्धः कः?
अत्र नामकरणम् अस्ति स्वरूपसम्बन्धः इति कल्पितः
सम्बन्धः. अस्तु, अग्रे पठतु.
अभावः भूतले स्वरूपसम्बन्धेन भवति, प्रतियोगिता घटे स्वरूपसम्बन्धेन भवति, पूर्वोक्ता अवच्छेदकता अपि घटत्वे स्वरूपसम्बन्धेन दैशिकविशेषणतया भवति. एवं घटपदार्थानां स्वस्मिन् एव यः सम्बन्धः सः तादात्म्यसम्बन्धः इत्युच्यते. अभावः भूतले केन सम्बन्धेन भवति इत्युक्ते, तत्र अभावः भूतले स्वरूपसम्बन्धेन भवति, प्रतियोगिता घटे स्वरूपसम्बन्धेन भवति. इत्युक्ते भूतले घटाभावः वदामः चेत् घट आनयनेन घटाभावस्य घटाभावः नश्यति. तर्हि प्रतियोगिता घटे अस्ति, प्रतियोगिता घटे स्वरूपसम्बन्धेन भवति इति अत्र दत्तमस्ति. पूर्वोक्ता अवच्छेदकता अपि घटत्वे स्वरूपसम्बन्धेन दैशिकविशेषणतया भवति इत्युक्ते तत्र अवच्छेदकता घटत्वे अवच्छेदकता अस्ति. घटधर्मः इत्युक्ते घटे घटत्वम् अस्ति, तर्हि घटत्वे अवच्छेदकता इति अस्ति. तर्हि अवच्छेदकता घटत्वे स्वरूपसम्बन्धेन दैशिकविशेषणतया इत्युक्ते कालिकविशेषणतया.
स्वरूपसम्बन्ध एवं केवलम् उक्त्वा अन्यत् किमपि न उक्तवन्तः अत्र. दैशिकविशेषणता इति स्वरूपसम्बन्धस्य एकः प्रभेदः, कालिकविशेषणता अपि अपरः प्रभेदः. प्रायः अग्रे पठिष्यामः इति चिन्तयामि इतोपि गभीरतया.
एवम् अग्रिम वाक्ये एवं दत्तमस्ति, केन सम्बन्धेन स्वस्मिन् भवति. तर्हि घटादिपदार्थीनां स्वस्मिन् यः सम्बन्धेन भवन्ति तस्य नामम् अस्ति तादात्म्यसम्बन्धः.
तादात्म्यः इति कश्चन नूतनसम्बन्धः. संयोगं दृष्टवन्तः, समवायं दृष्टवन्तः, अपि च स्वरूपसम्बन्धः कुत्र कुत्र भवति इति चित्रे प्रदर्शितमस्ति. अभावः भूतले अथवा प्रतियोगिता घटे अवच्छेदकता घटत्वे स्वरूपसम्बन्धेन, अधुना नूतनसम्बन्धः अस्ति तादात्म्यसम्बन्धः. तादात्म्यसम्बन्धः इति यथा महोदयेन उक्तं तादृशसम्बन्धः अस्ति येन एकः पदार्थः स्वस्मिन् वर्तते. तर्हि घटः घटे केन सम्बन्धेन भवति महोदय?
तादात्म्यसम्बन्धेन भवति.
कपालः कपाले?
कपालः कपाले अपि तादात्म्यसम्बन्धेन.
हा, पटः पटे तादात्म्यसम्बन्धेन इति
नूतनसम्बन्धःपुनरेकवारं तादात्म्यम् इति शब्दस्य अर्थं स्पष्टीकरणं.
तदात्मा, तद् आत्मा इति अस्ति खलु, तस्य भावः तादात्म्य इत्युक्ते तादृशसम्बन्धः अस्ति यद् स्वेन एव निरूपितः भवति. कथञ्चित् तथा अवगन्तव्यं. तद् आत्मा, आत्मनि एव यः सम्बन्धः अस्ति तादात्म्यसम्बन्धः तेन सम्बन्धेन सर्वोऽपि पदार्थः स्वस्मिन् वर्तते इति वार्ता न्यायशास्त्रे. इत्युक्ते उत्पीठिका उत्पीठिकायां वर्तते तादात्म्येन, कपालः कपाले एव वर्तते तादात्म्यसम्बन्धेन इति तथा.
कपालकपाले एव इत्युक्ते कपालत्वं कपाले अस्ति इति अहम् अवगच्छामि, किन्तु
भवान् वदतु इदानीं कपालत्वं कपाले केन सम्बन्धेन वर्तते?
तदेव तादात्म्यसम्बन्धं वा? धर्म धर्मी सम्बन्धः अस्ति,
समवायसम्बन्धः, समवायसम्बन्धः. महोदय जगन्नाथ महोदय, समवायसम्बन्धः, तादात्म्यसम्बन्धः इति नूतनविचारः प्रथमवारम् आगतः अस्मिन् पुस्तके. अधुना केवलम् एतत् अवगच्छतु यत् न्यायशास्त्रानुगुणं सर्वे पदार्थाः स्वस्मिन्, सर्वः पदार्थः, एकः पदार्थः स्वस्मिन् वर्तते इत्युक्ते अहं रक्षा अस्मि, अहं मयि अस्मि तादात्म्यसम्बन्धेन तथा. कपालः कपाले तादात्म्यसम्बन्धेन घटे अस्तु. सरला भगिनी किमपि उक्तवती?
स्वरूपसम्बन्ध तादात्म्यसम्बन्ध भिन्ना भवति.
आम् आम् एतावत् पर्यन्तं केवलम् एवं जानीमः यत् स्वरूपसम्बन्धः एतेषु स्थलेषु भवति.
तस्य त्रय अधिकरा त्रीणि अधिकराणि सन्ति स्वरूपसम्बन्धस्य.
अस्तु,
न घटाभाव यत्र अस्ति तस्य अधिकरणं
तथा एवम् एवम् उदाहरणत्वेन प्रदर्शितं तावदेव. अधुना अनुयोगिता अपि अभावे स्वरूपसम्बन्धेन भवति यत्र कुत्रापि अधिकरणता स्वरूपसम्बन्धेन. अस्तु, एकः प्रश्नः आसीत् तस्मिन् तेषु दिनेषु वर्गे अपि, तस्य विषये चिन्तनं कृत्वा समापयामः. इदानीं समवायसम्बन्धः इति स्वीकृतः किमर्थं? यतोहि गुणगुणिनोः क्रियाक्रियवतोः जातिव्यक्त्योः मध्ये पृथक्त्वम् अथवा पार्थक्यं न भवति एव खलु.
अस्तु,
तदर्थं समवायः आवश्यकः अस्ति. नियोगः वियोगः भवति, समवायः तादृशसम्बन्धः नास्ति, स्थायीरूपेण भवति इति कृत्वा. तर्हि अत्र प्रश्नः आगतः आसीत् यद् अस्तु, तर्हि तादृशसम्बन्धः अस्ति चेत् पुनः स्वरूपसम्बन्धः किमर्थम् इत्युक्ते, अधुना भूतलमस्ति, भूतले घटत्वाभावः नित्यम् अस्ति न वा? किं चिन्तनं?
नित्यम् अस्ति.
नित्यं किमर्थमस्ति महोदय? घटत्वं कुत्र वर्तते?
घटत्वं घटे,
घटत्वं घटे एव वर्तते, न तु भूतले. अतः भूतले नित्यत्वेन घटत्वाभावः वर्तते खलु? हा, तर्हि स्वरूपसम्बन्धः इति किमर्थम् इति किञ्चित् काचित् चर्चा जाता आसीत् तेषु दिनेषु. कस्यचित् किमपि चिन्तनमस्ति वा अस्य विषये? अस्तु, इदानीं समवायः इति अस्ति खलु, समवायः गुणगुणिनोः मध्ये अस्ति. समवायः द्रव्यम् इति गुणि अस्ति, तस्मिन् अस्तु पृथ्वी इति, तस्मिन् गन्धः इति गुणः समवायसम्बन्धेन. तर्हि समवायः कुत्र कुत्र वर्तते?
यत् पञ्चेषु स्थलेषु यत्र दत्तमस्ति
इति सत्यं महोदय, किन्तु मम उदाहरणं विशिष्टमस्ति, पृथ्वी अपि च गन्धः खलु. गन्धपृथिव्योः मध्ये समवायः अस्ति खलु?
निश्चयेन.
हा, तर्हि समवायः कुत्र कुत्र वर्तते अस्मिन् सन्दर्भे? हा, विद्याशङ्कर महोदय समीचीनम्, उभयोः स्थलयोः वर्तते. नाम समवायः इति सम्बन्धः गुणि अपि वर्तते, गुणे अपि गुणिनी अपि वर्तते, गुणे अपि वर्तते खलु. हा तर्हि अधुना प्रश्नः आगच्छति यत् अस्तु समवायः उभयोः वर्तते चेत् समवायः केन सम्बन्धेन उभयोः वर्तते, तत्र उत्तरं किम्?
समवायेन तु न वर्तते, अन्य किमपि आवश्यकम्?
अन्यत् किमपि आवश्यकं, पुनः ततः गत्वा गत्वा पुनः समवायः अपि समवायेन वर्तते इति चेत् अस्तु सः नूतनसमवायः केन वर्तते इति आगच्छति, तथा अधो गत्वा वदन्ति ते अनवस्थादोषः वा अथवा अव्यवस्थादोषः इति वदन्ति, तदर्थम् एषः सम्बन्धः स्वरूपसम्बन्धः इति स्वीकृत्य तत्र पर्याप्तम् इति वदन्ति, तावदेव।
अत्र भगिनी स्वरूपसम्बन्धः कुत्र वर्तते, घटे भाव भूतले अस्ति,
तत्र प्रायः उभयत्र इति वक्तुं शक्नुमः।
अस्तु
अस्तु, पुनः प्रश्ने आगते स्वरूपसम्बन्धः केन सम्बन्धेन इति चेत् तत्र गच्छामश्चेत् तत्र प्रश्नस्य अन्तः एव न भवति तादृशमार्गस्य, तदर्थं स्वरूपसम्बन्धेन एते वर्तन्ते इति उक्त्वा समापयन्ति अत्र। इति स्वरूपसम्बन्धस्य विषयः, किन्तु अस्माकं मुख्यविचारः अस्ति तादात्म्यसम्बन्धः, तर्हि स्वस्मिन् पदार्थः तादात्म्येन वर्तते इति मनसि निधाय अग्रे अत्यन्ताभावनिरूपणं भविष्यति। अस्तु, बहु किमपि अधीतवन्तः, अत्र कोऽपि प्रश्नः वा?
भगिनी, अपि च समवायसम्बन्धः पश्यामः चेत् तत्र समवायसम्बन्धस्य अधिकरणं सर्वदा द्रव्यमेव भवति खलु, इत्युक्ते द्रव्ये कश्चन अस्ति, इत्युक्ते द्रव्ये गुणः अस्ति, द्रव्ये क्रिया, द्रव्ये द्रव्यम् इति, परन्तु स्वरूपसम्बन्धः तु द्रव्ये एव इति नास्ति खलु, तदपि वक्तुं शक्नुमः वा?
न भगिनि, समवायसम्बन्धः अपि उभयत्र वर्तते खलु, न केवलं द्रव्ये, गुणगुणिनोः मध्ये गुणः इति गुणः, गुणि इति द्रव्यं खलु, तर्हि समवायः उभयनिष्ठः,
हा उभयनिष्ठः, परन्तु यदा वयं वदामः तत्र इत्युक्ते पुस्तके नीलरूपम् इत्येव वदामः खलु, न तु नीलरूपे पुस्तकम् इति,
हा सत्यं,
परन्तु घटत्वे अवच्छेदकता इति तत्र स्वरूपसम्बन्धेन इति वक्तुं शक्नुमः खलु, तथा तत्र तर्हि तत्र अधिकरणं केवलं द्रव्यमिति न इत्यपि भवति खलु।
ओ, भवती यत् चिन्तयति, अस्तु, एतेषु उदाहरणेषु सर्वं द्रव्यमेव प्रदर्शितं, भूतलं
सत्यं
न भगिनि, परन्तु अभावः अस्ति, घटाभावः, घटाभावे अनुयोगिता अस्ति खलु,
अनुयोगिता, तदेव भगिनि,
अभावः द्रव्यं नास्ति,
सत्यं, तदेव अहं वदामि, इत्युक्ते यत्र स्वरूपसम्बन्धः अस्ति तत्र द्रव्यं विना अन्यपदार्थस्य अपि तत्र सम्बन्धः भवति खलु, परन्तु समवायसम्बन्धे द्रव्येण सह कस्यचित् अन्यपदार्थस्य सम्बन्धः इति भवति।
ओ तथा, एक अस्तु, समवायस्थले एकवस्तु सर्वदा द्रव्यमेव भवति,
हा सत्यं, परन्तु स्वरूपसम्बन्धस्थले तथा नास्ति,
तथा स्यात् प्रायः, न जाने किं भगिनि, सरला भगिनि,
गुणक्रिया क्रियावत् तत्र क्रिया गुणिनः द्रव्यमस्ति,
द्रव्यमस्ति इत्येव अखिला भगिनी उक्तवती, अत्र समवायस्थले एकम् अधिकरणं तु सर्वदा द्रव्यमेव, स्वरूपसम्बन्धस्थले तथा न स्यात्, द्रव्यभिन्नस्थले अपि भवितुमर्हति।
भगिनि, मम किञ्चित् क्लेशः अस्ति,
इत्युक्ते
अखिला भगिनी वदतु,
हा इत्युक्ते तत्र तत्र केवलं तत्र मम चिन्तनस्य ऐ मीन् लाजिकल् कन्क्लूषन् इत्युक्ते तत्र यत्र द्रव्यं विहाय अन्यपदार्थेषु पदार्थयोः मध्ये कश्चन सम्बन्धः कल्प्यते चेत् तत्र किमपि कश्चन अन्यसम्बन्धः आवश्यकः इति कृत्वा तत्र स्वरूपसम्बन्धः इति कृतं वा इति अपि इति एवं मम प्रश्नस्य आशयः तर्हि तावदेव.
किन्तु तत् सर्वदा अपि सत्यं नास्ति, यतोहि अत्र उदाहरणेषु द्रव्याणि प्रदर्शितानि, परन्तु यद्भवती वदति तदपि सत्यं. द्रव्यभिन्नस्थले अधिक आधाराधेयभावः भवति चेत् तत्र स्वरूपसम्बन्धः एव इति. अस्तु, विद्याशङ्करमहोदय.
मम किञ्चित् क्लेशः आसीत् स्वरूपसम्बन्धः तदात्मसम्बन्धः तयोः भेदः यथा यत्र घटत्वं घटे कस्मिन् सम्बन्धे अस्ति, तादात्म्यं वा स्वरूपं वा?
घटे घटे घटत्वं तु समवायसम्बन्धेन खलु महोदय, जातिव्यक्त्योः.
ओ अस्तु, तादात्म्यं केवलम् एकः पदार्थः स्वस्मिन् तदेव
तत्र तादात्म्यं. सत्यं सत्यम् इत्येव. अस्तु तर्हि, अन्यत् किमपि चिन्तनं वा प्रश्नः नास्ति चेत् अत्र स्थगयामः अग्रिमसप्ताहे.
भगिनि इत्युक्ते संयोगः नास्ति, समवायः नास्ति, तादात्म्यः नास्ति चेत् स्वरूपसम्बन्धः
इति एतावत् पर्यन्तम् एते एव वयं जानीमः. अन्य कोऽपि सम्बन्धः अस्ति न वा इति अहमपि न जानामि. समवायं जानीमः, स्वरूपसम्बन्धं जानीमः, संयोगं जानीमः, अपि च तादात्म्यः इति कश्चन.
अस्तु अस्तु
अस्तु अस्तु,
धन्यवादः.